ओम श्री परमात्मने नमः। तृतीयोऽध्याय अर्जुन उवाच जायसि चेत् कर्मणास्ते मता बुद्धिर्जनार्दन कर्मणि घोरे मां नियोजयसि केशव यामे श्रेणेव वाक्येन बुद्धिं मोहयसीव मे हरेकं वदने सेत्य येन श्रेयोऽहमाप्नुयाम् श्रीभगवान् उवाच लोकेऽस्मिन् द्विविधाने सा पुरा प्रोक्ता मयानघ योगेन साङ्ख्यानां कर्मयोगेन योगिनाम् कर्मणामनारम्भान्नैष्कर्म्यम् पुरुषो श्नुते च सन्न्यासनादेव सिद्धिं समधिगच्छति नहि कश्चित्क्षणमपि जातु तिष्ठत्य कर्म कृत् कार्यते ह्यवशः कर्म सर्व प्रकृति जैर्गुणैः कर्मेन्द्रियाणि संयाम्य यो आस्ते मनसा स्मरन्
कर्मेन्द्रियाणि संयाम्य
आत्मा मिथ्याचार सोच्यते यस्येन्द्रियाणि मनसानि यम्यारभते अर्जुन कर्मेन्द्रियैः कर्मयोग मसक्तः स विशिष्यते नियतं कुरु कर्म त्वम् कर्म ज्यायो ह्य कर्मण शरीर यात्रापि च ते न प्रसिद्ध्येद कर्मण यज्ञार्थात् कर्मणो न्यत्र लोकोऽयं कर्म बन्धन तदर्थं कर्म कौन्तेय संगः समाचर सह यः प्रजाः श्रेष्ट्वा पुरो वास प्रजापते अनेन प्रसवेष्यध्व मेषवोऽस्ते कामधो देवान् भावयतानेन हे देवा भावयन्तु भोगान्नेवो देवा दास्यान् ते यज्ञ भाविता प्रदायो यो भुंते सेनाए वस शेषाशिना संतो मुच्यन्ते सर्वकेल्विषये पसन्त्यात्मकारणात्
वञ्जते ते त्वघं पापा
अन्नात् भवन्ति भूतानि पर्जन्यादन् न संभव यद्भवति पर्जन्यो यज्ञ कर्म समुद्भव कर्म ब्रह्मोद्भवं वेद्धि ब्रह्माक्षरसमुद्भव
आत्मा
संतोषस्तस्य कार्यं न विद्यते नैव तस्य कृतेनार्थो न कृते नेह कश्चन तस्य सर्वभूतेषु कश्चिदर्थव्यपाश्रय सततं कार्यं कर्म समाचर असक्तो ह्याचरन् कर्म परमाप्नोति पुरुष
असक्तो ह्याचरन् कर्म परमाप्नोति पुरुष
कर्मणैव हि संसिद्धे मास्तिता जनकादय लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमार्हसि यद्यदाचरति सत्तदेवेतरो जना स यत्र माणं कुरुते लोकस्तदनुवर्तते मे पार्थस्य कर्तव्यं त्रिषु लोकेषु किञ्चन वर्त एव च कर्मणि यदि ह्यहं न वर्तेयम् जातु कर्माण्यतान्द्रिता वर्तन्ते मनुष्याः पार्थ सर्वशः गुणसम्मूढा सज्जन वंदे गुणकर्मसु कृष्ण वेदो मंदान कृष्ण विन्न विचालये मयि सर्वाणि कर्माणि निर्ममो भूत्वा युध्यस्व विगत ज्वर ये मे मतमेदं नित्य मनुते शांति मानवा श्रद्धावन्तो न सूयन्तो मोच्यन्ते ते विकर्मभि ये त्वेतदभ्यसूयन्तो नानु ते शान्ति मे मतम् सर्वज्ञानविमूढासान् विद्धि नष्टानचेतस सदृशम् ते स्वस्य प्रकृतिर्ज्ञानवानपि प्रकृते ज्ञान्ति भूतानि निग्रह किं करिष्यति इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ तयोर्नावशमागच्छेत् तौ ह्यस्य परिपान्थिनौ अधिष्ठानमुच्यते येष यानमावृत्य देहिनास्मात्त्वमेन्द्रियाण्यादौ नियाम्य भरतर्षभ पाप्मानं प्रजहियेन ज्ञान विज्ञाननाशन इन्द्रियाणि पराण्याहु रेन्द्रियेभ्यः परं मन मनसस्तु परा बुद्धिर्यो बुद्धिः परतः सुसः संस्तभ्यात्मानमात्मना दहि शत्रु महाबाहो कामरूपं दुरासदं कामरूपं दुरासदं
श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः
ॐ